चित्रं षोडशः ईशोः अनुभवयन्ति शोदनानि प्रभु ईशोः कुत्रचित् अद्भुतकार्याणि करोति तत् सर्वजनाङ्गं ईशोः अनुसरयन्ति सा वदा सर्वजनाङ्गानि सः सहायं कुर्वन्ति जनांगेषु ईश्वरश्च स्वच्छन्तपन्धा सह जनांगेषु वदा प्रभु ईश्वरं ततस्य कारणेन तस् विस्मेत आगच्छति सा प्रभु ईश्वरं प्रेमतत्त्वं तत् जनांगेषु सह अर्थयन्तस्म च दुष्टापापेषु पदा जनांगीषु ईश्वरस्या समीपेन तज्जनांगानि आकर्षयन्तम् तूच धार्मिकस्या गुरुः तस्य हृदयं पाषाणम् अस्ति तेषाम् इदमस्या भाषणेषु न विश्वसयति यूषिः तस्य मा आगच्छति ईश्वरेण तेषुम् इदं वचनेन न अङ्गीकरिस्मान् कः ईश्वरस्य पदकानां खण्डितयथा ताः पापः समानः तदा तेषूनाम् ईशुष्वस्वानेनाम् अदा असत्यं वधा तस्यं बन्धितवान् सैनिकानां तस्यं ताडयन्ति तेषु जनाङ्गानि ईशस्य कृशेषु कण्टककिरीटं ददा च अदमेव अपहास्ययन्ति इदं वचनं जानेषुं स्थिरम् अयम् ईशुः ईश्वरस्य पुत्रं तस्येन इदं सामर्थ्यं च प्रज्ञाति केन इदं जनाङ्गानि भ्रष्टत्वमेव पद तू च तेषु उष्णेन न बहिर्गतयति इदानीं सः ज्ञानवन्तः इदमानि ईश्वरस्य पदकम्